ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। ब्राह्मण उवाच, सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च, देहिनां यद्यथा दुःखं तस्मान्नेच्छेत् तद्बुधः, ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा, यदृच्छयैवापतितं ग्रसेदा जगरो क्रियः, शयितानि भूरीणि निराहारो नुपक्रमः, यदि नोपनमेद्ग्रासो महाहिरिवदिष्टभुक् ओजः सहो बलयुतं बिभ्रद्देहमकर्मकम्, शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि, मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः, अनन्तपारो यक्षोभ्यः स्तिमितो दैवार्णवः, समृद्धकामो हीनो वा नारायणपरो मुनिः, नोत्सर्पेतनसुष्येत सरिद्भिरिव सागरः, दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः, प्रलोभित पतत्यन्धे तमस्यग्नौ पतङ्गवत्, योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारजितेषु मूढः, प्रलोभितात्मायुपभोगबुद्ध्या पतङ्गमन्नश्यति नष्ट दृष्टिः, स्तोकं स्तोकं ग्रसेत् ग्रासं देहो वर्तेत यावता, गृहानहिंसन्नातिष्ठेत् वृत्तिं माधुकरीं मुनिः, अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः, सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः, सायन्तनं स्वस्तनं वा न सङ्गृहीणीत भिक्षितम्, पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही, सायन्तनं स्वस्तनं वा न सङ्गृह्णीत भिक्षुकः, मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति, कदापि युवतीं भिक्षुर्न स्पृशेद्दारवीमपि, स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः, नाधिगच्छेत् स्त्रियं प्राज्ञः कदिचिन्मृत्युमात्मनः, बलाधिकैः सहन्येत गजैरन्यैर्गजो यथा, न देयं नोपभोग्यं च लुब्धैर्यद्दुःखसञ्चितं, भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु, सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः, मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनां, ग्राम्यगीतं न शृणुयात् यतिर्वनचरः क्वचित्, शिक्षेत हरिणात् बद्धान् मृगयोर्गीतमोहितात्, नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम्, आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीसुतः, जिह्वयाति प्रमाथिन्या जनोरसविमोहितः, मृत्युमृच्छत्य सद्बुद्धिर्मीनस्तु परिशैर्यथा, इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः, वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते, तावज्जितेन्द्रियो न स्यात् विजितान्येन्द्रियः पुमान्, न जयेद् रसनं यावज्जितं सर्वं जिते रसे, पिङ्गलानामवेश्यासीत् विदेहनगरे पुरा, तस्यामे शिक्षितं किञ्चिन्निबोध नृपनन्दन, सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यति, अभूत्काले बहिर्द्वारि बिभ्रति रूपमुत्तमम्, मार्गागच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ, तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका, आगतेष्वपयातेषु सा सङ्केतोपजीविनी, अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः, एवं दुराशयाध्वस्तनिद्राद्वारि अवलम्बति, निर्गच्छन्ति प्रविशति निशीथं समपद्यत, तस्या वित्ताशया शुष्यद्वक्त्रायादि न चेतसः, निर्वेदः परमो जज्ञे चिन्ता हेतुः सुखावहः, तस्या निर्विण्णचित्ताया गीतं शृणु यथा मम, निर्वेदाशापाशानां पुरुषस्य यथा यसिः, नयङ्गाजात निर्वेदो देहबन्धं जिहासति, यथा विज्ञानरहितो मनुजो ममतां नृप, पिङ्गलो वाच, अहो मे मोह विततिं पश्यता विजितात्मनः, या कान्ता दशतः कामं कामये येन बालिशा, सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय, अकामदं दुःखभयादिशोक मोहप्रदं तुच्छमहं भजेज्ञा, अहो मयात्मा परितापितो वृथा साङ्केत्य वृत्त्यातिविगर्य वार्तया, स्त्रैणान्नरात् यार्थ त्रिशोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छति, यदस्थिभिर्निर्मितवंशवंश्यस्थूणं त्वचारोमनखैः पिनद्धं, क्षरन्नवद्वारमगारमेतत् विण्मूत्रपूर्णं मधुपैतिकान्या, विदेहानां पुरे यस्मिन् हमेकैव मूढधी यान्यमिच्छन्त्यसत्यस्मादात्मदात् काममच्युतात्। सुहृत्प्रेष्ठ तमोनाथ आत्मा जायं शरीरिणां तं विक्रियात्मनैवाहं रमेनेन यथा रमा। कियत् प्रियन्ते व्यभजन् कामये कामदानराः आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः। नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः। मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः येनानुबन्धं निरृत्य पुरुषः सममृच्छति। तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम्। सन्तुष्टा शुद्धधत्येतद्यथा लाभेन जीवति विहराम्यमुनैवाः मात्मना भ्रमणेन वै। संसारकूपे पतितं विषयैर्मुषिते क्षणं ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः। आत्मैव यात्मनो गोप्ता निर्विद्येत यदाखिलात् अप्रमत्त इदं पश्येत् ग्रस्तं कालाहिना जगत्। ब्राह्मण उवाच एवं व्यवसितमतिर्दुराशां कान्ततर्षजां छित्वोपशममास्थाय शय्यामुपविवेशसा। आशा हि परमं दुःखं नैराश्यं परमं सुखं यथा सञ्चिद्य कान्तासां सुखं सुष्वापपिङ्गला। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे अष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।